తుండ మహాకాయ సూర్య కోటి సమప్రభ నిర్విఘ్నం భూమే దేవ సర్వకార్యేషు సర్వదా.
చిత్తలయ సదా భవతు మే.
पुस्तकव्यापिनी वीणा पुस्तकधारिणी मभयदा जाड्यान्धकारापहः हस्ते स्फाटिकमालिकां विदधति पद्मासने संस्थितं वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदां गायन्तियं सामदा ज्ञानावस्थितत्ततेन मनसा पश्यन्तियं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः देवाय तस्मै नमः देवाय तस्मै नमः
पन्नगभूषणं मृतधरं वन्दे पशूनां पतिं
वन्दे सूर्यशशाङ्कमन्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्
वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिं वन्दे सूर्यशशाङ्कवन्दिनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदम् वन्दे शिवं शङ्करम् वन्दे शिवं शङ्करम् वन्दे शिवं शङ्करम् चराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः
जितेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये श्रीरामदूतं शरणं प्रपद्ये श्रीरामदूतं शरणं